सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। धन्यवादः महोदय।
धन्यवादः भगिनी। धन्यवादः सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। गतवर्गे वयं गीतां कथां पठितवन्तः, तत्र हलान्तशब्दानाम् अभ्यासः भवतु इति। इदानीं तत्र पुनः तत्र गीतासोपानं गच्छामः। तत्र किं षष्टि तमे पुटे इदानीं तत्र विशेषणविशेष्यभावः, तत्र सङ्ख्यासु लिङ्गभेदः अस्ति, तस्मिन् विषये अग्रे पठामः। गीताञ्जलि भगिनी नमस्कारः। अस्तु तर्हि तत्र सूर्यकुमारी भगिनी भवती आरम्भं करोति वा तत्र चित्राणि सन्ति तत्र
एकवारं
दशमाध्यायः
गणनां कुर्मः।
गणनां कुर्मः इत्युक्ते गणना इति अस्ति। गणना इत्युक्ते कति सन्ति, कति सन्ति इति पश्यामः। अत्र एकः अस्ति वा, कति सन्ति इति, तत्र तस्य उत्तरं गणनां कृत्वा उत्तरं वक्तुं शक्नुमः।
संख्यासु लिङ्गभेदः विशेषणविशेष्यभावः अपि लिङ्गभेदः अस्ति, विशेष्यविशेषणभावः विशेषणभावः अपि अस्ति।
हा तत्र तस्मिन् विषये अग्रे पश्यामः तत्र कीदृशभावः इति।
पुल्लिङ्गचित्राः सन्ति। एकः बालकः
एकं
दूरदर्शनं
त्रिशलिङ्गे, एतत् वयं जानीमः। तत्र एकः एका एकम् तत्र द्वे इति तत्र तत्र तत् किं भवति द्वि इति
पुल्लिङ्गे द्वौ युवकौ द्वे महिले द्वे फले
फले इति। अतः तत्र तत्रापि लिङ्गभेदः अस्ति। इदानीं
त्रि प्रातिपदिकं त्रयः छात्राः श्रीलिङ्गे तिस्रः नर्तक्यः बहुवचनं नपुंसकलिङ्गे त्रीणि पुष्पाणि।
हा समीचीनं भगिनि। हा तत्र एकः एकवचने द्वि इति द्विवचने अपि इदानीं तत्र त्रयः तिस्रः त्रीणि इति बहुवचने अस्ति। हा समीचीनम्। अग्रे चत्वारः
पुल्लिङ्ग चत्वारः पत्रकाराः स्त्रीलिङ्गे चतस्रः कूप्यः नपुंसकलिङ्गे चत्वारि छत्राणि।
हा चत्वारि छत्राणि समीचीनम्। इदानीं तत्र
पञ्चवैद्याः पञ्च द्रोण्यः पञ्च कङ्कतानि
पञ्चकङ्कतानि इति समीचीनम्। अस्तु समीचीनं भगिनि। अस्तु इदानीं तत्र हा पञ्च आरभ्य तत्र भेदः नास्ति, समीचीनम्। अस्तु गीताञ्जलि भगिनी नमस्कारः।
नमस्ते महोदय, क्षम्यता।
चिन्ता मास्तु भगिनि,
क्षम्यता। गीतासोपनं टु पुनः एकवारं
मध्ये
मम सङ्कणके समस्या आसीत्, अतः अहं दत्तवती, निवारणार्थं दत्तवती, अन्यत् सङ्कणके योजितवती
द्वारा।
गीतासोपनं तु नास्ति, मम समीपे नास्ति,
शक्नोमि भगिनि। किन्तु तत्र यदा भवती पूर्वं सूचितमासीत् चेत् सुलभम् अभवत्, किन्तु एकनिमिषः पश्यामि, एकनिमिषः भगिनि। हा तत्र एकनिमिषः भगिनि.
अन्य कोऽपि लिङ्क् लिङ्क् प्रेषितुं शक्यते चेत्
एकनिमिषः भगिनि, अहमेव प्रेषयामि एकनिमिषः. चाट् मध्ये स्थापयामि एकनिमिषः.
अस्तु, धन्यवादः.
हा, चिन्ता मास्तु भगिनि. हा, प्राप्तवती वा? चाट् मध्ये अस्ति.
अस्ति अस्ति, धन्यवादः महोदय.
हा, अस्तु भगिनि. अस्तु गीताञ्जलि भगिनि, तर्हि तत्र केवलम् अभ्यासार्थं तत्र बालिका इति स्वीकृत्य एकः एका बालिका, द्वे, तिस्रः, चतुस्रः इति वदति वा भगिनि रूपाणि?
प्रयत्नं करोमि महोदय.
एकातः पञ्चपर्यन्तं.
एका बालिका, द्वे बालिके, तिस्रः बालिकाः, चतस्रः बालिकाः, पञ्च बालिकाः.
हा, इति समीचीनम्. अस्तु, अग्रे तत्र रघुपति महोदय, इदानीं तत्र युवकः इति स्वीकृत्य एकः इति.
हा, एकः युवकः, एका युवती.
न केवलं पुल्लिङ्गे,
एकः युवकः, द्वौ युवकौ,
त्रयः
युवकाः, चत्वारः युवकाः, पञ्च युवकाः.
युवकाः, समीचीनं महोदय. सरलमेव, किन्तु एकवारं तत्र मनसि स्थापितं भवति इति तावदेव. अस्तु, इदानीं तत्र सूर्यकुमारी भगिनी, इदानीं तत्र नपुंसकलिङ्गे भवती पठितवती, किन्तु इदानीं तत्र छत्राणि इति स्वीकृत्य एकम् इति आरभ्य
पञ्चपर्यन्तं. द्वे छत्रे, त्रीणि छत्राणि, पञ्च छत्राणि,
चत्वारि छत्राणि, पञ्च छत्राणि.
चत्वारि छत्राणि, पञ्च छत्राणि.
समीचीनम्. अस्तु, लक्ष्मी भगिनी प्राप्तवती वा? लक्ष्मी भगिनी,
अहं लिङ्क् प्राप्तवती, पुटसङ्ख्या
60.
एकनिमिषम्.
अस्तु, तस्मिन् समये तत्र गीताञ्जलि भगिनी इदानीं तत्र अग्रे पठति वा तत्र?
आं महोदय, पठत, अवगच्छत च. अत्र प्रातिपदिकं पुंलिङ्गे, स्त्रीलिङ्गे, अपि नपुंसकलिङ्गे दत्तानि.
केवलं प्रातिपदिकं तत्र एकतः पञ्च, केवलं प्रातिपदिकानि पठतु भगिनि.
हा महोदय, आं महोदय. एक, द्वि, त्रि, चतुर्, पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, नकारान्त.
हा, हलन्तपदानि इदानीं.
हा, हलन्तपदानि, चतुरपि हलन्त अस्ति, तत्र तु रेफ अस्ति, किन्तु तत् पञ्च आरभ्यतः नकारान्त, हलन्त, सर्वे महोदय.
न न, केवलं षष् नास्ति. षष्
नास्ति, अधिकतया.
हा, आधिक्येन तत्र नकारान्त. हा, सत्यं सत्यं भगिनि. हा, इदानीं तत्र रूपं तु जानीमः, तत्र पञ्च, षट्, षष् इति तत्र षट् इति भवति,
षट् भवति.
अन्यत् सर्वं तत्र सप्त, अष्ट, तत्र गुणिन्, गुणि इति जानीमः, तत्र अन्तिम इन् तस्य लोपः भवति तत्र, अतः तत्र पञ्च, सप्त. गुणिन् मध्ये प्रातिपदिकं गुणिन् अथवा तत्र आत्मन् इति स्वीकुर्मः, तत्र आत्मा इति, आत्मन् इति तत्र तादृश, केवलं तत्र भिन्नः अस्ति, किन्तु केवलं तत्र इन् इति तस्य लोपः भवति इति तावदेव.
अपि च अन्य किमपि परिवर्तनं न, इत्युक्ते पञ्चन् पञ्च भवति, सप्त भवति, अष्टन् अष्ट भवति इति न
महोदय? इति तावदेव, केवलं सरलरूपेण तत्र स्मरणार्थं तावदेव. अस्तु, अग्रे तत्र अवधेयम् इति अस्ति, तदपि पठतु.
अवधेयम्. एकं, द्वे, त्रीणि, चत्वारि इत्यादयः संख्यावाचकशब्दाः अपि विशेषणानि भवन्ति इत्युक्ते ते सर्वे विशेषणानि पदानि सन्ति
तत्र अग्रे अपि पश्यामः तत्र एकः बालकः एका बालिका इति तत्र रूपभेदः भवति यतोहि तत्र विशेषणभावः अपि ते विशेषणानि अपि सन्ति इति अतः तत्र महिले अस्ति चेत् तत्र द्वे महिले युवकौ सन्ति चेत् रूपं द्वौ युवकौ इति तत्र भवति
इत्युक्ते चत्वारि किं चतुर् चतुर् संख्या पर्यन्तं रूपं तु भिन्नानि रूपाणि
केवलं रूपं भिन्नानि इति केवलं न किन्तु तत्र विशेषणभावः अपि वर्तते विशेषणभावः अपि वर्तते तत्र अंशद्वयमस्ति अत्र प्रथम अंशः संख्यावाचकशब्दः का संख्या इति ते वदन्ति वाचकः शब्दः इत्युक्ते यत् यः शब्दः वदति किञ्चित् वदति सः वाचकः तत्र विशेषणविशेष्यभावः इति तत्र वदामः खलु तत्र एकमस्ति विशेषणम् एकमस्ति विशेष्यं तादृशः तत्र सम्बद्धपदद्वयं भवति विशेषणं विशेष्यं तादृशस्तत्र वाचकः अपि वाच्यम् तत्र वाचकः इत्युक्ते यः शब्दः वदति सः वाचकः यस्य विषये वदति सः वाच्यं किन्तु तत्र वाचकः सङ्ख्याविषये वदति सङ्ख्या का इति वदति एकः द्वे त्रीणि इति तत्सर्वं सः एषः शब्दः सङ्ख्या का इति वदति अतः तत्र सङ्ख्यावाचकशब्दाः ते सर्वे एकं द्वे त्रीणि चत्वारि इति अपि विशेषणं तत्र वाचकः अस्ति वाच्यम् इति अस्ति तत्र
वाच्यं किं महोदय
तत्र वाचकः वाच्यं यस्मिन् विषये किमपि वदामः तद् वाचक तद् अस्ति वाच्यं तत्र
अस्तु यथा विशेषणविशेष्य
तत्र हा तादृशः
इत्युक्ते
अत्र संख्या एव वाच्यं संख्या का संख्या त्रयः अतः त्रयः इति किं करोति संख्याविषये किमपि वदति संख्या वाच्यम् अपि एषः संख्याविषये वाचकम्
इत्युक्ते संख्याशब्दाः वाचकाः अपि च
एते सर्वे वाचकाः
वाचकाः शब्दाः संख्याः
वाचकशब्दाः वाचकशब्दः संख्या इति विषये वदन्ति एते शब्दाः
वाचकशब्दाः संख्याविषये वदन्ति
वदन्ति अतः वाचकः इति
वाच्यम् इत्युक्ते
यस्य विषये
यस्य
विषये किमपि वदन्ति
यस्य गणना अस्ति
तदपि नास्ति तत्र न तत् तत् किञ्चित् भिन्नं वाचकं वाच्यं तत्र विशेषणम् इति पुनः किञ्चित् अग्रे गत्वा पुनः एतत् पश्यामः भगिनि किन्तु तत्र नित्य तत्र सम्बद्धपदद्वयं भवति इति इदानीं तत्र संख्या का इति वदति एकः अंशः अन्यः अंशः अस्ति विशेषणभावः अत्र अस्ति इति अग्रे
अग्रिमम् एकं द्वे त्रीणि चत्वारि इत्येतेषां चतुर्णाम् एव त्रिषु लिङ्गेषु भिन्नानि रूपाणि भवन्ति ततः अग्रे त्रिषु अपि लिङ्गेषु समानं रूपं भवति इत्युक्ते पञ्चतः त्रिषु लिङ्गेषु समानरूपाणि सर्वाणि
तत्र यदिवदि वयं वदामः तत्र अष्ट, तत्र अष्टवैद्याः वा अष्टद्रोण्यः वा अष्टकङ्कतानि वा, तत्र अष्ट एव भवति, तत्र रूपभेदः नास्ति,
समानेव
समानरूपम्.
अग्रिमं पञ्च इत्यतः आरभ्य नवदशपर्यन्तं संख्यावाचकशब्दाः नित्यबहुवचनान्ताः भवन्ति. अस्तु महोदय. इत्युक्ते यद्यपि त्रीणि अपि बहुवचन अस्ति किन्तु नित्यं न बहुवचनं नास्ति इत्युक्ते
तादृशं नास्ति किन्तु तादृशं तत्र पश्यामः तत्र रूपं कीदृशमिति अग्रे पश्यामः. किन्तु तत्र पञ्च इति आरभ्य तत्र नित्य बहुवचनान्ताः भवन्ति इति तत्र
इत्युक्ते तस्य पूर्वं नित्य बहुवचनान्त नास्ति
इति अस्तु किन्तु पश्यामः अग्रे पश्यामः. किन्तु तत्र किं ते वक्तुम् इच्छन्ति इत्युक्ते तत्र यदि तत्र पञ्चादश इति स्वीकुर्मः तत्र पञ्चादशः इति तत्र किं भवति तत्र नित्य बहुवचनान्ताः एव भवति इति तत्र तस्य पदस्य रूपं कीदृशम् इत्युक्ते केवलं बहुवचनरूपमेव स्वीकरणीयम् इति. किन्तु अग्रे वयं पश्यामः शतम् इति पदम् अग्रे अस्ति तत्र शतं तु सर्वदा एकवचने एव भवति इति. अतः तत्र किञ्चित् भेदः अस्ति, केचन नियमाः सन्ति तत्र अभ्यासेन तत्र अवगमनं भवति किन्तु किञ्चित् अभ्यासम् अपेक्षितम् अस्ति अत्र.
अस्तु महोदय, विचित्र अस्ति शतम् एकवचनपदम्
अस्ति. हा हा हा, अतः किञ्चित् पश्यामः. अस्तु अग्रे रघुपति महोदय.
हा महोदय, तत्र अग्रे खलु अवगतचत्
अवधेयम् इति अस्ति अधोभागे तत्र अष्टन् शब्द
अष्टन् शब्दस्य अष्ट अष्टौ इति रूपद्वयम् अस्तु. अष्टन् शब्दस्य अष्ट अष्टौ इति रूपद्वयं भवति. विंशतितः नवनवतिपर्यन्तं सर्वे अपि संख्यावाचकपदा शब्दाः एकवचनान्ताः स्त्रीलिङ्गाश्च भवन्ति.
हा, तत्र एकवचनान्ताः भवन्ति अपि स्त्रीलिङ्गाश्च भवन्ति इति यदि नियमः अस्ति चेत् तत्र विशेषणभावः भवितुम् अर्हति.
न भवति, एकवचनान्त भवति परन्तु
तत्र विशेषणभावः न भवति एव. तत्र समानविशेषभावः अस्ति चेत् तत्र समानलिङ्गः समानवचनं खलु. किन्तु अत्र विंशतितः नवनवतिपर्यन्तं तत्र तु विशेषणभावः नास्ति. या भावः तत्र एकं द्वे त्रीणि चत्वारि मध्ये अस्ति सः भावः विंशतितः नवनवतिपर्यन्तं तत्र तु नास्ति एव. अग्रे शतम् इति
परन्तु तादृश पञ्च इत्यस्मिन् अपि तादृशमेव खलु तत्र पञ्च 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 एव अस्ति.
हा सत्यम्. अतः एव तत्र विशेषणभावः केवलं तत्र एकं द्वे त्रीणि चत्वारि मध्ये एव उक्तम्. अपि तत्र पञ्चतः नवदशपर्यन्तं तत्र नित्य बहुवचनान्तशब्दाः भवन्ति. अत्र विंशतितः नवनवतिपर्यन्तं किम् अस्ति तत्र एकवचनान्तं भवन्ति. तत्र वचनं तु तत्र सर्वदा एकमेव तेषां, किन्तु पञ्चतः नवदशपर्यन्तं बहुवचनरूपं, विंशतितः नवनवतिपर्यन्तं तत्र एकवचनरूपमेव, अपि स्त्रीलिङ्गे. अपि अन्तिमं तत्र शतम् इति शब्दस्य
शतं शब्दः नपुंसक पुल्लिङ्गश्च शतं.
हा, तत्र शतम् इति तत्र नपुंसकः पुल्लिङ्गश्च तत्र लिङ्गद्वयमस्ति तत्र शतम् इति पदस्य.
नपुंसक पुल्लिङ्गद्वयमपि
अस्ति इति. हा, किन्तु तत्र
प्रत्ययम् इत्येव शतम्.
हा तत्र अग्रे पश्यामः, तत्र उदाहरणानि सन्ति इति मन्ये महोदय. अपि तत्र तत्रापि तत्र शतम् इति पदस्य तत्र एकवचने एव भवति इति अपि चिन्तयामि. तत्र
एकवचने एव भवति,
एकवचने एव
सहस्रं सर्वदा.
हा हा तत्र अतः तत्र एकवचने एव भवति इति. अस्तु महोदय, धन्यवादः. अस्तु अग्रे सूर्यकुमारी भगिनी, तत्र शुभदा भगिनी, नमस्कारः.
एकशब्दः त्रिषु लिङ्गेषु भिन्नः.
तत्र एतत् करोतु भगिनि, तत्र एकः इति तत्र किं कुर्मः, तत्र एकः वैद्यः इति स्वीकरोतु. हा एकः वैद्यः इदानीं तत्र एकः वैद्यः केवलं पुल्लिङ्गे वदतु, तत्र
एकं वैद्यम् एकेन वैद्येन एकस्मै वैद्ये
वैद्यायै वैद्याय वैद्याय
वैद्याय एकस्मात् वैद्यात् एकस्य वैद्यस्य एकस्मिन् वैद्ये
वैद्ये. समीचीनं भगिनि. हा इदानीं तत्र एका इति करोतु,
एका एका
एका तत्र एका बालिका इति स्वीकरोतु.
एका बालिका एकां बालिकाम् एकया बालिकया एकस्यै बालिकस्यै
न न बालिका इति अस्ति.
ओ बालिकायै क्षम्यताम्. एकस्याः बालिकायाः एकस्याः बालिकायाः एकस्यां बालिकायां
बालिकायां. समीचीनं. तदनन्तरं तत्र नपुंसकलिङ्गे तु तत्र पुल्लिङ्गमेव एव अस्ति, अतः तत् इदानीं मास्तु. अस्तु लक्ष्मी भगिनी अग्रे, इदानीं तत्र द्वौ इति अस्ति, तत्र द्वौ इति तत्र द्वौ युवकौ इति स्वीकरोतु, तत्र
द्वाभ्यां युवाभ्यां द्वाभ्यां युवाभ्यां द्वाभ्यां युवाभ्यां द्वयोः युवयोः द्वयोः युवयोः
चिन्ता मास्तु भगिनि. अस्तु इदानीं तत्र स्त्रीलिङ्गे करोतु, तत्र द्वे इति अस्ति, तत्र द्वे महिले इति स्वीकरोतु, तत्र किं
द्वे महिले द्वाभ्यां महिलाभ्यां द्वाभ्यां महिलाभ्यां द्वाभ्यां महिलाभ्यां द्वयोः महिलयोः द्वयोः महिलयोः.
हा अस्तु सुलभम् अस्ति. अस्तु समीचीनं भगिनि. अस्तु शुभदा भगिनी अग्रे, इदानीं तत्र त्रयः इति, तत्र त्रयः छात्राः इति स्वीकरोतु भगिनि. हा पुल्लिङ्गे.
अहं वा महोदय?
हा शुभदा भगिनी. हा
त्रयः किं महोदय?
छात्राः, त्रयः छात्राः. तत्र पेज् 62 मध्ये तत्र अधोभागे त्रिशब्दस्य रूपाणि दत्तानि सन्ति खलु भगिनि?
हलो
हा भगिनि, श्रूयते?
अधुना श्रूयते महोदय. किञ्चित् क्लेशः अस्ति मम इण्टर्नेट्.
अस्तु अस्तु, इदानीं श्रूयते वा? अस्तु भगिनि, तत्र पेज् 62 मध्ये त्रिशब्दस्य रूपाणि दत्तानि सन्ति. तत्र प्रथमस्तम्भः अस्ति, तत्र पुल्लिङ्गे त्रयः त्रीणिति. अत्र केवलं पठनं मास्तु इति कृत्वा तत्र त्रयः छात्राः इति उपयुज्य तस्य विभक्तिरूपाणि वदतु भगिनि.
आं महोदय, बहुवचने एव भवति खलु? त्रयः बालकाः त्रीन् बालकान् त्रिभ्यः बालकेभ्यः त्रयाणां बालकानां त्रिषु बालकेषु.
हा समीचीनं भगिनि. अस्तु, इदानीं तादृशमेव तत्र तिस्रः इति, तत्र तिस्रः तिस्रः तत्र बालिकाः इति स्वीकरोतु. अस्तु,
तिस्रः बालिकाः, तिस्रः बालिकाः, तिसृभिः बालिकाभिः, तिसृभ्यः बालिकाभ्यः, तिसृभ्यः बालिकाभ्यः, तिसॄणां बालिकानां तिसृषु बालिकासु.
बहु समीचीनं भगिनि. अस्तु, समीचीनं, धन्यवादः भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनि. इदानीं तत्र चत्वारः इति, तत्र चत्वारः तत्र किं युवकः इति स्वीकरोति वा?
आं महोदय, चत्वारः युवकाः, चतुरः युवकान्
युवकान् समीचीनं
युवकान्, चतुर्भिः युवकैः, चतुर्भ्यः युवकेभ्यः, चतुर्भ्यः युवकेभ्यः, चतुर्णां युवकानां, चतुर्षु युवकेषु.
हा समीचीनं भगिनि. हा, इदानीं तत्र चतस्रः इति, तत्र महिला इति स्वीकरोति वा?
चतस्रः महिलाः, चतस्रः महिलाः, चतस्रभिः महिलाभिः, चतस्रभ्यः महिलाभ्यः, चतस्रभ्यः महिलाभ्यः, चतस्रणां महिलाणां, चतसृषु महिलासु.
हा समीचीनं भगिनि, समीचीनम्. अस्तु, तर्हि तत्र इदानीं तत्र पञ्च इति, तत्र केवलं तत्र पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु इति, तत्र रूपभेदः नास्ति, किन्तु तत्र बहुवचने एव अस्ति इति तत्र पठितवन्तः खलु. तत्र पञ्च इत्यतः आरभ्य नवदशपर्यन्तं नित्यबहुवचनान्ताः भवन्ति. अतः तत्र पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु इति एव तत्र रूपभेदः नास्ति. तत्र केवलं प्रथमाविभक्तौ रूपभेदः नास्ति इति न, तत्र अन्यासु विभक्तिषु अपि तत्र रूपभेदः नास्ति. तस्य पञ्च तत्र विशेषणम् इति, तत्र हा विशेषणम् इति अपि तत्र अङ्गीकारः नास्ति. तत्र केवलं तत्र विशेषणम् इति, तत्र एकं द्वे त्रीणि चत्वारि मध्ये एव अस्ति इति मन्ये भगिनि. अस्तु, इदानीं तत्र
संख्यावाचकशब्दः तु सर्वदा विशेषणशब्दः अस्ति.
न न न भगिनि, तस्मिन् विषये बहु किमपि वक्तव्यमस्ति. तत्र अत्र किं, तत्र केवलं तत्र न्यूनतया दत्तम् अस्ति अस्मिन् विषये, तत्र संख्याविषये अपि, तदनन्तरं पूर्णप्रत्ययान्ताः इति, तत्र प्रथमः द्वितीयः इति, तत्र किन्तु बहु न्यूनमेव दत्तमस्ति. यदि तत्र विस्तरेण ज्ञातुम् इच्छति चेत् तत्र एतत् प्रायशः तदपि अग्रे कर्तुं शक्नुमः अध्यायस्य तत्र
अग्रिम अध्याय पूर्णप्रत्यय पूर्णप्रत्ययान्तः
किं महोदय
अग्रिम अध्याये अस्ति खलु अस्माकं
तत्र संख्याविषये तत्र विशेषणभावः अपि तत्र बहु किमपि तत्र लघुरूपेण एव अत्र कृतमस्ति महोदय. किन्तु अहं तत्र जनार्दन हेग्डे
महोदय प्रपञ्च इति
अस्ति वा?
पुस्तक गतवर्षे एव तस्य अभवत् पुस्तकमस्ति
इति वा महोदय?
संस्कृतभारत्यां मिलति
अहं तत्र शुद्धिकौमुदी इति पुस्तके तत्र सङ्ख्याः विषये तत्र एकः अध्यायः अस्ति तस्मिन् पुस्तके. तत्र सः बहु अनेकानि उदाहरणानि अपि सर्वं ददाति, किन्तु तत्र तद् यदि पठामः तत्र प्रायशः किं मासद्वयम् अपेक्षितमस्ति केवलं तस्य पठनार्थं.
सङ्ख्याप्रपञ्च इति पुस्तकमस्ति महोदय, तदपि अहं कृतवान्, किञ्चिदेव पठितवान्
आसीत्.
समीचीनमस्ति, तत् समीचीनमस्ति. पञ्चाशत्
रूप्यकाणि कति पुटानि सन्ति महोदय तत्र?
तत्र तत्र अन्यविषयाः सन्ति. अत्र एकशताधिक एकविंशति, सोरि, 21,000 120 पेज् पुस्तकमस्ति.
अस्तु अस्तु अस्तु, अतः तत्र
जनसङ्ख्याप्रपञ्चः इति पुस्तकमस्ति.
अस्तु अस्तु, अतः तत्र अस्मिन् वर्गे तत्र तस्य पठनं न कर्तुं शक्नुमः, किन्तु तत्र शुद्धिकौमुदी इति पुस्तके तत्र किञ्चित् विवरणमपि अस्ति, प्रायः तत् तदपि किञ्चित् पठितुं शक्नुमः. अतः तत्र अस्मिन् पुस्तके तत्र पूर्णप्रत्ययाः तदपि कृत्वा प्रायः तत्र शुद्धकौमुद्यां यत् दत्तमस्ति तद् अपि किञ्चित् पठितुं शक्नुमः, यतोहि तत्र सम्यक्तया विवरणं दत्तमस्ति. अतः गीताञ्जलिभगिनी तत्र गीतासोपानं पठित्वा तदनन्तरं तदपि किञ्चित् पठामः भगिनि.
अस्तु महोदय, अस्तु. इत्युक्ते विषयः तु सरलं नास्ति.
हा इति सत्यं भगिनि. हा सत्यं, हा हा इति सत्यं भगिनि. हा अतः तत्र किं परिचयरूपेण अत्र दत्तम् अस्ति, किन्तु अनेकाः विषयाः अत्र सन्ति. अस्तु तर्हि तत्र इदानीम् अग्रे गच्छामः. यत् पठितवन्तः तत्र तस्य विषये किञ्चित् अभ्यासं कुर्मः, तदनन्तरं तत्र अग्रे किं भवति. किन्तु एकः विषयः तु मनसि स्थापितुं शक्नुमः, एकं विषयं तु तदस्ति तत्र पञ्चपर्यन्त 1, 2, 3, 4 तत्र एक प्रथमसमूहः, तदनन्तरं तत्र पञ्चतः 19 द्वितीयसमूहः, तृतीयसमूहः 20-99 इति तत्र, तदनन्तरं 100, 100+ तत्र किं किम् अपि भवतु, किन्तु 100 इति मुख्यमस्ति. तदनन्तरं किं भवति, यद्यपि सङ्ख्या अस्ति तत्र 18+100 अथवा तादृशमेव भवति. अतः तत्र तस्य विषये विभक्तिरूपाणि यदि वक्तुम् इच्छामः तत्र 100 इति पदस्य एव विभक्तिरूपम् अपेक्षितं भवति इति कृत्वा तत्र तदनन्तरम् अपि तत्र अन्यः समूहः अथवा तत्र 100 पर्याप्तम् इति अपि चिन्तयितुं शक्नुमः. किन्तु तत्र पञ्चतः 19 एकः समूहः, 20-99 तत्र द्वितीय अन्यः समूहः इति तत्र मनसि स्थापितम्.
तर्हि महोदय इदं षष्ठीभक्ति विंशतीनां बालकानाम् इति न वक्तव्यं, 20 बालकानाम्
इति
एकवचने एकवचनविभक्ति प्रत्ययोजनीयम्
इति महोदय.
20
हा सत्यं, यद्यपि तत्र बालकानाम् इति भवति किन्तु तत्र 20 तत्र 20 इति स्त्रीलिङ्गपदम् अस्ति,
एकवचनं न भवति, एकवचने एव भवति,
एकवचने एव भवति. अतः 20 इति रूप भेद इति तत्र ज्ञातव्यः अस्ति तत्र. सत्यं महोदय, हा अतः तत्र अभ्यासं यदि कर्तुम् इच्छामः तत्र प्रायशः शुद्धिकौमुदी सम्यक् भवति, पश्यामः. अस्तु अग्रे तत्र लक्ष्मी भगिनी अत्र अभ्यासः पठति वा भगिनी, तत्र अभ्यासं यत् अस्ति यः अस्ति अभ्यासः तत्र पुटसङ्ख्या अस्ति.
अस्तु महोदय. कश्चन गीताशिबिरे भागं गृहीतवान् तेन तस्य जीवने परिवर्तनं भवति, ततः सः कं कं निर्णयं करोति इति अत्र लिखितमस्ति। तत्र एक शब्दस्य उचितरूपाणां साहाय्येन रिक्तस्थानानि पूरयत।
प्रथमवाक्यस्य अर्थः कः?
कश्चन कोऽपि कोऽपि पुरुषः गीताशिबिरे भागं गृहीतवान्
इत्युक्ते
सः गीताशिबिरं
गतवान्
तत्र गतवान् भागं स्वीकृतवान्
स्वीकृतवान् इत्युक्ते सः गत्वा तत्र सर्वं श्रुतवान् पठितवान् सर्वं कृतवान् तत्र। अग्रे
तेन तस्य जीवने परिवर्तनं भवति,
तेन
गीताशिबिरेण तस्य जीवने परिवर्तनं भवति।
भागं गृहीतवान्
भागं
गृहीतवान् तस्य, अतः गीताशिबिरे भागं यः यत् भागं गृहीतवान् तत्र तस्य ग्रहणेन
परिवर्तनं भवति
ततः
ततः सः कं कं निर्णयं करोति
अनन्तरम् अथवा तत्र तत्र इत्युक्ते यत् परिणामम् अभवत् तस्मात् परिवर्तनात्
सः कं कं निर्णयं करोति इति अत्र लिखितमस्ति। सः तस्य निर्णयम् अत्र लिखितम् अस्ति। तत्र एकशब्दस्य उचितरूपाणां
निर्णयः तस्य निर्णयः अत्र
निर्णयः अत्र लिखितः अस्ति तत्र एकशब्दस्य उचितरूपाणां साहाय्येन रिक्तस्थानानि पूरयत। एकशब्दस्य रूपाणि अस्ति रूपाणि सन्ति तेन साहाय्येन रिक्तस्थानानि पूरयत।
प्रथमं करोतु भगिनि तत्र।
प्रतिदिनं गीतायाः अध्यायं पठामि गीतायाः
अध्यायः इति पुल्लिङ्गे अतः
अध्यायम् एकम् अध्यायं पठामि
एकम् अध्यायं पठामि समीचीनं समीचीनं। सूर्यकुमारी भगिनी अग्रे
एकस्य श्लोकस्य कण्ठपाठं करोमि
समीचीनम्। अग्रे
प्रतिमासं एकस्मै जनाय गीतापुस्तकं ददामि
प्रतिमासम् एकस्मै जनाय गीतापुस्तकं ददामि समीचीनं। शुभदा भगिनी अग्रे
एकेन जनेन सह वा गीताविषये चर्चां करोमि
अग्रे
गीताजयन्त्याः एकस्मात् दिनात् पूर्वं सर्वत्र गीतासन्देशं प्रसारयामि
तत्र दिनात् पूर्वम् इति अस्ति अतः तत्र एकस्मात् इति तत्र किमर्थं दिनात् इति अस्ति
पूर्वम् इति
समीचीनं। अस्तु अग्रे गीताञ्जलि भगिनि
वर्षे एकस्मिन् सप्ताहे गीताशिक्षणे भागं वहामि
वर्षे एकस्मिन् सप्ताहे गीताशिक्षणे भागं वहामि अन्तिम
अहं एव चेदपि गीताकक्ष्यां सञ्चालयामि अहं गीताकक्ष्याम् इति एकाम् अहम् एकाम् एव
न न अहम् एव चेद् अपि न न न तत्र गीताकक्ष्यां सञ्चालयामि इति अस्ति चेदपि एव चेद् अपि तत्र एव चेत्
अहम् एकः अपि स्वयम् इत्युक्ते स्वस्य विषये एव वद
न न तत्र यदि अन्ये जनाः न सन्ति चालयितुं तथापि अहं तत्र गीतावर्गं गीताकक्ष्यां चालयितुं यदि अनेके जनाः सन्ति समीचीनं किन्तु यदि न कोऽपि आगच्छति चालयितुं अहं न चिन्तयामि केवलम् अहमेव अस्मि चेदपि अहम् एकः एव चेदपि
अहम् एका एव चेदपि
हा समीचीनं भगिनि हा एकः अथवा एकः किन्तु अत्र कश्चन इति आसीत् खलु तत्र अभ्यासे अतः एकः इति यदि तत्र काचित् महिला इति आसीत् चेत् तत्र एका इति समीचीनं भगिनि सत्यमेव तत्र केवलम् अहम् इति अत्र अस्ति इति कृत्वा तत्र इदानीं तत्र प्रथमविभक्तिरूपम् एकः वा एका वा इति अपेक्षितं तावदेव समीचीनं भगिनि अतः तत्र यदि अन्ये जनाः न सन्ति चिन्ता मास्तु अहं निश्चयेन गीताकक्ष्यां सञ्चालयामि इति अस्तु समीचीनं भगिनि धन्यवादः अस्तु रघुपतिमहोदय अग्रिमे पुटे
अस्तु आवरणे विद्यमानं तत्त्वसङ्ख्याकं गीताश्लोकम् अवलोक्य सङ्ख्यावाचकशब्दानाम् उचितरूपैः यथोदाहरणं रिक्तस्थानं पूरयत हे सहस्रबाहो त्वं पुनः चतुर्भिः भुजैः युतं रूपं स्वीकुरु कुत्र अस्ति
हा अस्तु अस्तु महोदय तत्र प्रायः तत्र सर्वं दृष्ट्वा एव एषः अभ्यासः करणीयः अतः तत्र अग्रिमवर्गे किन्तु इदानीं तत्र अग्रिम अभ्यासः तत्र सङ्ख्या दत्ता अस्ति महोदय तत् तम् अभ्यासं स्वीकुर्मः
तृतीयाभ्यासः वा विशेष्यम् अनुसृत्य विशेषणस्य सङ्ख्यावाचकशब्दस्य उचितेन रूपेण रिक्तस्थानं पूरयत एका गायिका अस्ति त्रयः वानराः क्रीडन्ति द्वे पुस्तके स्तः पञ्चसेवकाः सन्ति पञ्चकमलानि सन्ति तत्रापि किमपि परिवर्तनं नास्ति यद्यपि अत्र पुल्लिङ्गेन
समीचीनं महोदय अस्तु
पुष्पम् इति अस्ति तत्र एकं पुष्पं
पतति अस्तु अस्तु अतः तत्र प्रायशः तत्र प्रायशः किमपि तत्र अस्तु महोदय एतत् कुर्मः महोदय तत्र केवलं एषः अभ्यासः तत्र सर्वे मिलित्वा एकवारं वदामः तत्र न तदनन्तरं महोदय भवान् एव तत्र अग्रिम अभ्यासम् आरम्भं करोति तत्र किमपि कर्तुं किमपि अस्ति किन्तु अत्र किमपि नास्ति किन्तु अतः सर्वे मिलित्वा एकवारं वदामः तत्र इदानीं तत्र एकं पुष्पं पतति इति अग्रे तत्र सर्वे मिलित्वा वदामः तत्र धेनवः चरन्ति अतः तत्र धेनवः इति धेनवः चरन्ति धेनुः इति स्त्रीलिङ्गे अस्ति इति अस्तु मार्जालाः धावन्ति तत्र किमस्ति मार्जालाः धावन्ति तत्र लिङ्गभेदः नास्ति अस्तु लेखन्यौ इति अस्ति तत्र द्वे लेखन्यौ स्तः अस्तु उपदेशः सन्ति तत्र उपवेदाः सन्ति उपवेदाः सन्ति समीचीनं इदानीं तत्र कन्दुकानि क्रीणन्ति ताः
त्रीणि
इति अस्ति वृद्धः गच्छति तत्र
एकः
चिनोति फलानि पञ्च फलानि
पञ्चफलानि
युवकौ क्रीडतः
द्वौ
युवकौ क्रीडतः समीचीनम् उत्पीठिकाः उत्पीठिका इति अस्ति अतः ते
चत्वारः
चतस्रः इति एव समीचीनं किन्तु तत्र चतस्रः इति विभक्तिका तत्र उत्पीठिकाः स्थापयन्ति ते चतस्रः द्वितीयविभक्ति कर्मपदं समीचीनम् इदानीं तत्र आसन्दाः सन्ति कति आसन्दाः सन्ति
अष्टौ अपि
रूपद्वयम् अस्ति समीचीनम् अग्रे वर्णान् लेपयति कति वर्णान् लेपयति किन्तु तत्र इदानीं तत्र सप्त इति पदस्य तत्र
द्वितीयविभक्ति अत्र
विभक्तिरूपं न दत्तं खलु तत्र अतः तत्र किं तत्र सप्त इति पदस्य रूपं किम् अस्ति इति किञ्चित् एकवचनमेव सत्यं भगिनि किन्तु तत्र द्वितीयविभक्तिरूपे परिवर्तनं नास्ति सप्त इति एव भवति किन्तु तत्र विभक्ति तु तत्र विभक्ति अस्ति तत्र किं
द्वितीय
इति भवितव्यं किन्तु न सप्त एव किन्तु अस्तु अग्रे तत्र महाविद्यालयाः विद्यन्ते कति अग्रिमे पुटे सत्यं तत्र अङ्गुल्यः दश अङ्गुल्यः सन्ति अङ्गुल्यः सन्ति अग्रे तत्र महाविद्यालयाः विद्यन्ते
षट्
महाविद्यालयाः विद्यन्ते रसाः कति रसाः सन्ति
नवरसाः
सन्ति अस्तु इदानीं तत्र रूपं तत्र विभक्तिरूपाणि दत्तानि सन्ति इदानीं तत्र किमपि अस्ति कर्तुम् अस्तु रघुपतिमहोदय इदानीम् एतद् एषः अभ्यासः तं करोतु महोदय एतं करोतु
एकवारं महोदय ध्वनिः अस्ति वा मम गृहे
अस्ति अस्ति महोदय सम्यक्तया
न ध्वनिः अन्यध्वनिः श्रूयते वा इति अत्र बाधा नास्ति खलु
न बाधा नास्ति अस्तु
अस्तु अस्तु
महोदय द्वितीयम् अभ्यासं न कुर्मः वा
द्वितीयमभ्यासम् अत्र भगवद्गीता एव दृष्ट्वा तत्र करणीयम् इति कृत्वा भगिनि तत्र अग्रिमे वर्गे तत्र वर्गात् पूर्वं यदि सर्वे एकवारम् अवलोक्य आगच्छति चेत् समीचीनं भवति खलु नो चेत् अत्र इदानीं तत्र श्लोकः कुत्र अस्ति इति अन्वेषणं कुर्मः चेत्
कोष्टके विद्यमानानि पदानि चित्वा रिक्तस्थानेषु योजयत अद्य मम गृहं प्रति त्रयः अतिथयः आगताः तस्मिन् ग्रामे संस्कृतगृहाणि सन्ति तस्मिन् ग्रामे चत्वारि संस्कृतगृहाणि सन्ति चत्वारि एव अस्ति अत्र
चत्वारि एव तत्र नपुंसकलिङ्गे अस्ति नो चेत् तत्र तिस्रः अस्ति अपि त्रयः अस्ति किन्तु तत्र लिङ्गं
एकवचने नास्ति कोऽपि अन्य
प्रथमविभक्तौ किमपि नास्ति सत्यं महोदय
त्रयः अस्ति परन्तु तत् इदानीं संस्कृतगृहाणि अतः
नपुंसकलिङ्गं नास्ति
भवान् हस्ताभ्यां मा खादतु द्वाभ्यां हस्ताभ्याम् अस्ति वा द्वाभ्यां हस्ताभ्यां मा खादतु मासेषु चैत्रः प्रथमः द्वादशसु
द्वादशसु तत्र द्वादशसु इदानीं तत्र द्वादशः कुत्र भवति? तत्र पञ्च इत्यतः नवदशपर्यन्तं द्वादशः अस्ति खलु, अतः तत्र तस्य नित्यबहुवचनम्, अतः तत्र द्वादशसु इति रूपम् अस्ति तत्र.
लता द्वादशसु मासेषु चैत्रः प्रथम, लतायाम् एव पुष्पाणि सन्ति, लतायाम् इति अस्तु, एकस्यां लतायाम् एकवचने अस्ति, अतः एकस्याम् लतायाम् एव पुष्पाणि सन्ति. नर्तकीनां नृत्यं पश्य, नर्तकीनां बह्व्यः एकवारम् अत्र तिसृणां कुत्र अस्ति वा? तिसॄणाम् अथवा पञ्चानां भवति अर्हति.
किन्तु तत्र तिसॄणाम् इति स्त्रीलिङ्गे अस्ति, अतः तदपि प्रायशः समीचीनमस्ति. किन्तु तत्र पञ्चानाम् अन्यत्र अपि भवितुम् अर्हति.
पञ्चानाम् अग्रिमवाक्ये भवति महोदय.
पञ्चानां काव्यानां लेखनेन सह विख्यातः काव्यानां षष्ठीभक्ति बहुवचन अस्ति,
स्त्रीलिङ्गम् अस्ति खलु, तत्रापि
पञ्चानाम्
अतः तत्र तिसृणाम् तिसृणाम्
पञ्चानाम् अपि सम्यक् एव, लिङ्गभेदः नास्ति.
सत्यं भगिनि, न न, किन्तु तत्र पञ्चानां नर्तकीनाम् इति यदि कुर्मः तत्र किं भवति? तत्र पञ्चानां
काव्यानां न भवति,
तिसृणां काव्यानां न भवति. तत्र यत् पदं दत्तम् एकवारमेव तस्य प्रयोगं कर्तुं शक्नुमः. अतः किं भगिनि,
व्याख्यात आमां लेखनेन न कालिदासः वा लेखनः मल्लिनाथः तु तस्य व्याख्यानं लिखितवान् खलु.
मल्लिनाथः
सः राजा वीरैः सह युद्धं कृतवान्, अतः वीरैः इति तृतीया अस्ति, वीरैः अत्र एकवारम् एकस्यां षड्भिः दशभिः वीरैः सः युद्धं कृतवान्, सहयोगे तृतीया अस्तु. ग्रामेभ्यः जनाः आगतवन्तः पञ्चमी भवति. षड्भ्यः ग्रामेभ्यः जनाः आगतवन्तः इति भवति वा?
सत्यं, यतोहि तत्र अग्रिमवाक्ये तत्र स्त्रीलिङ्गम् अपेक्षितमस्ति.
स्त्रीलिङ्गम् अस्ति, बालिकाभ्यः पारितोषकं दत्तवान्, अत्र स्त्रीलिङ्गे अस्ति, अतः षड्भ्यः चतस्रु चतस्रुभ्यः बालिकाभ्यः पारितोषकं दत्तवान्.
अत्र तु तत्र चतुस्रुभ्यः तत्र चतुर्थी विभक्तिः अस्ति अत्र दत्तवान्,
चतुर्थी विभक्ति अहं बालिकाभ्यः दत्तवान् इति दादातु अस्ति
सम्प्रदाय.
बहुमानं
भारतस्य यशः दिक्षु इति अस्ति अत्र
श्रीलिङ्गे,
श्रीलिङ्गे अस्ति एकवारं
चतसृषु
चतसृषु चतसृषु दिक्षु व्याप्तम् अस्ति,
चतसृषु दिक्षु व्याप्तम् अस्ति. समीचीनम्. अन्तिमं,
सा आपणतः लेखनी क्रीणाति, आपणतः लेखनीः क्रीणाति, अतः द्वितीया विभक्तिः भवति लेखनीः. किमस्ति एकस्यां दशति तिसृणं त्रयः तिस्रः तिस्रः क्षम्यतां तिस्रः अस्तु अस्तु तिस्रः लेखनीः खलु
तिस्रः लेखनीः क्रीणाति.
त्रयः इति कुत्र अभवत्? त्रयः इत्यस्य
अन्तिम अन्तिमः
न, त्रयः इति प्रयोगः कुत्र आसीत्?
प्रथम महोदय
तस्य प्रयोगं न कृतवन्तः तावदेव. धन्यवादः महोदय.
दशभिः अपि सम्यक् एव.
कुत्र भगिनि?
लेखनीः.
अन्यत् पदं किं भगिनि तत्र? लेखनीः इति तस्य
दशभिः न भवति खलु?
दशभिः,
दशभिः इति तृतीयविभक्ति, द्वितीय बहुवचनं भवेत् श्रीलिङ्गे. अतः
तत्र केवलं तत्र तिस्रः एव अस्ति, तत्र अन्यत् किमपि नास्ति तत्र द्वितीयविभक्तौ. अस्तु, समीचीनम्. अस्तु, सूर्यकुमारी भगिनी अग्रे, तत्र अग्रिम अभ्यासः.
आवरणे विद्यमानसङ्ख्यानुगुणं रिक्तस्थानं पूरयत. एकस्मिन् ग्रामे
एकः अस्ति, ग्रामः ग्रामः अस्ति, अतः एकस्मिन् ग्रामे खलु, ग्रामे इति सप्तमीभक्ति, एकस्मिन् इति
ग्रामे चत्वारः युवकाः आसन्. ते चत्वारः अपि विविधशास्त्राणि जानन्ति स्म. तेषु तेषु युवकेषु
तेषु इदानीं तत्र तेषु चतुर्षु युवकेषु
एकं युवकं विहाय अन्ये त्रयः युवकाः मूर्खाः आसन्. कदाचित् ते वनमार्गेण एकेन वनमार्गे
वनमार्गेण
गच्छन्ति स्म. तदा एकस्य वृक्षस्य अधः एकस्य सिंहस्य मृतशरीरं दृष्टवन्तः.
हा, समीचीनं भगिनि. हा, समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनि.
हा, अस्तु महोदय. मृतं सिंहं दृष्ट्वा चतुर्षु युवकेषु एकः युवकः उक्तवान्, मित्राणि, अस्माकं शास्त्रज्ञानस्य परीक्षणार्थम् उत्तमः अवसरः प्राप्तः. वयं मन्त्रशक्तिप्रयोगेण एनं मृतं सिंहं सजीवं कारयामः इति. तत् श्रुत्वा
सर्वे अवगच्छन्ति खलु, तत्र कोऽपि प्रश्नः अस्ति वा? एतावत्पर्यन्तं सर्वे अवगच्छन्ति इति मन्ये खलु. तत्र एनम् इति अस्ति, तत्र एनम् इति इत्युक्ते किम्? इदं शब्दस्य द्वितीयभक्ति एकवचनरूपम् एनं मृतं सिंहम् सजीवं तत्र सजीवं तस्य पुनर्जीवनं भवतु इति तत्र तस्य तद् कारयामः तत्र तस्मिन् जीवने जीवनम् आनयामः इति अत्र कारयामः इति. अस्तु, अग्रे भगिनि.
तत् श्रुत्वा द्वौ युवकौ तस्य वचनं अङ्गीकृतवन्तौ. परन्तु बुद्धिमान् युवकः तेषां निर्णयं न अङ्गीकृतवान्. सः तान् त्रीन् अपि सुहृदः उक्तवान्।
हा, तत्र सुहृदः इति पदस्य विभक्ति का?
त्रीन्
सुहृदः उक्तवान्। किम् उक्तवान् सः?
भोः कृपया एनं सिंहं मा जीवयन्तु। यदा सः प्राणान् धारयति तदा अस्मान् अस्मान् चतुरः अस्मान् चतुरः अपि मारयति। अतः एतम् उद्यमं परित्यजन्तु इति।
हा, परित्यजन्तु इति समीचीनं भगिनि। हा, तत्र कृपया एनं सिंहं मा जीवयन्तु। हा, तत्र किं करोति सिंहः? जीवनस्य प्राप्तिः यदा भवति तदा सिंहः किं करोति? अस्मान् चतुरः अपि मारयति इति सः वदति। हा, किन्तु किं भवति तत्र? गीताञ्जलिभगिनी अग्रे।
आं महोदय, अतः एतम् उद्यमं परित्यजन्तु इति। परन्तु त्रयः अपि मूर्खाः, त्रयः अपि मूर्खाः तस्य वचनं न श्रुतवन्तः। ते सिंहं जीवयितुम् आरभन्त। तदा बुद्धिमान् युवकः समीपस्थम् एकं वृक्षम् आरुह्य उपविष्टवान्। ततः
त्रयाणां
युवकानां मन्त्रप्रयोगेण सिंहः प्राणान् अधरत्। नितरां बुभुक्षितः सः झटिति एव तान् त्रीन् अपि युवकान् अमारयत्।
एषः प्रसिद्ध कथा तु प्रसिद्धा अस्ति खलु। तत्र अमरचित्रकथा मध्ये एषा कथा लभ्यते चित्ररूपेण, अपि तत्र द्रष्टुं शक्नुमः। तत्र प्रायश एकस्य विषये किञ्चित् वक्तव्यमस्ति। तत्र सिंहः प्राणान् अधरत् इति अस्ति। तत्र प्राणान् इति अस्ति, तत्र एकवचने किम् अस्ति गीताञ्जलिभगिनी?
प्रथमविभक्तौ
किम् अस्ति?
प्राणाः।
हा, किमर्थं तत्र बहुवचने अस्ति तत्र? हा, तत्र प्राणाः इति, तत्र पञ्चप्राणाः सन्ति इति कृत्वा तत्र नित्य बहुवचनरूपम् अस्ति तत्र। अतः तत्र प्राणान् अधरत् इति एव अस्ति। समीचीनम्, अस्तु। इदानीं तत्र अस्तु, अग्रिम अभ्यासः कुर्मः। तत्र इदानीं तत्र स्वस्य वाक्यम् अपेक्षितम् अस्ति इदानीं। अतः तत्र अस्तु,
सुलभमस्ति, भ्रमजनक अस्ति।
किं महोदय?
सुलभमस्ति परन्तु सुलभ अस्ति परन्तु भ्रमजनक अस्ति।
सत्यं महोदय, सत्यं सङ्ख्या। अतः तत्र शनैः गच्छामः इति तत्र। अस्तु, तत्र शुभदा भगिनी अग्रे।
कोष्ठके कानिचन पदानि सन्ति, तेषु भवतां गृहे कानि कति सन्ति इति लिखत। तेषु भवतां गृहे कानि कति सन्ति इति लिखत।
तत्र केवलं तत्र भवती तत्र पदत्रयं स्वीकृत्य वाक्यत्रयं वदतु भगिनि।
अस्तु,
यत्किमपि
उदाहरणार्थं मम गृहे षोडश आसन्दाः सन्ति.
तत्र पश्यतु, तत्र आसन्दाः इति बहुवचने अस्ति, किन्तु षोडश इति पदं तत्र षोडश इति एक तत्र एकमेव रूपम् अस्ति षोडश इति. अपि तत्र षोडश इति नित्य बहुवचनं रूपम् अस्ति. अग्रे
मम गृहे चत्वारः भ्रातरः सन्ति. मम गृहे
तत्र केवलं तत्र यदस्ति तत्र भगिन्यः इति तत्र क्रमेण न वक्तव्यं भगिनि. यत् यत् किमपि चिनोतु तत्र वाक्यत्रयं करोतु भगिनि, तावदेव अभ्यासार्थम्. अतः
अभ्यासार्थं क्षेत्रे तिस्रः धेनवः चरन्ति. तिस्रः धेनवः चरन्ति. उत्पीठिकायां पञ्च द्रोण्यः सन्ति.
पञ्च द्रोण्यः सन्ति, समीचीनम्. अस्तु तत्र अस्तु, अन्यत् वाक्यमपि वदतु.
पुस्तकानि ओके. मम पार्श्वे द्वे पुस्तकानि सोरि बहुवचनं चत्वारि पुस्तकानि सन्ति.
मम गृहे त्रीणि द्वाराणि सन्ति.
त्रीणि द्वाराणि सन्ति, समीचीनम्.
स्यूताः स्यूताः मम पुत्र्याः द्वे चतुस्रः स्यूताः सन्ति.
चत्वारः स्यूताः सन्ति, समीचीनम्.
गत्यः त्रयः
घटी इति स्त्रीलिङ्गे
घटी स्त्री तिस्रः गत्यः आसने सन्ति.
कुत्र सन्ति? उत्पीठिकायाः उपरि उत्पीठिकायाः उपरि सन्ति, समीचीनं भगिनि. अस्तु रघुपतिमहोदय.
महोदय, महागृहे एकशतं प्रकोष्ठाः सन्ति. वातायनानि मम गृहे षड् वातायनानि सन्ति. दर्व्यः मम गृहे एकविंशति दर्व्यः सन्ति.
समीचीनं महोदय, एकविंशतिः दर्व्यः सन्ति, एकवचने एव.
एकवचने,
समीचीनं महोदय. अस्तु लक्ष्मी भगिनी अग्रे.
हा अस्तु महोदय. सभायां शतम् आसन्दाः सन्ति.
समीचीनं.
माता तिस्रः धेनवः पालयति.
तिस्रः धेनवः पालयति.
प्रकोष्ठे पञ्चव्यजनानि सन्ति.
हा, पञ्चव्यजनानि सन्ति. समीचीनं भगिनि. हा, अस्तु. अग्रे गीताञ्जलि भगिनि.
आं महोदय. विद्यालयस्य पार्श्वे चत्वारः कुक्कुटाः सन्ति.
चत्वारः
कुक्कुटाः
सन्ति.
अपि च मम गृहे अधुना चतस्रः अजाः न सन्ति. चतस्र न महोदय,
तत्र
अजाः
स्त्रीलिङ्गे अजः इति अस्ति वा? अजः इति प्रायशः अस्ति भगिनि. अजः इति अस्ति रूपं पुल्लिङ्गे. अजा प्रायशः अपि अस्ति. नास्ति वा? न, नास्ति भगिनि. अजा इति अजः अपि अस्ति. अजः अपि अस्ति भगिनि.
द्वयमपि अस्ति, त्रिलिङ्गे अपि पुल्लिङ्गे अपि अस्ति.
अतः तिस्रः इति समीचीनं.
तिस्रः समीचीनं.
तिस्रः अजाः
सन्ति. तदनन्तरं वने शतं वृषभाः सन्ति.
हा, शतं वृषभाः सन्ति. समीचीनं भगिनि. अस्तु, तर्हि तत्र अभ्यासं तत्र केवलं तत्र सङ्ख्या उपयुज्य सङ्ख्यायाः उपयोगेन वाक्यं वाक्यानि कृतवन्तः. इदानीम् अग्रे पश्यामः. तत्र सुभाषितानि दत्तानि सन्ति, तत्रापि तत्र सङ्ख्याः सन्ति. इदानीं तानि सुभाषितानि परिशीलयामः. अस्तु, अग्रे तत्र शुभदा भगिनी अग्रे करोति वा?
सङ्ख्यावाचकशब्दसहितानि एतानि सुभाषितानि पठत अवगच्छत च. एक एव खगोमानी वने वसति चातकः, पिपासितो वा म्रियते याचते वा पुरन्दरम्. एक एव खगोमानी वने वसति चातकः, पिपासितो वा म्रियते याचते वा पुरन्दरम्. वने वसत्सु पक्षिषु चातकपक्षी अत्यन्तस्वाभिमानी, सः जलार्थं भगवन्तम् इन्द्रमेव याचते, न तु अन्यं कमपि. पिपासया मरणावस्थामेव प्राप्नुयात् चेदपि सः इन्द्रात् अन्यं न याचते. अस्तु.
एकः एव खगः मानी. मानी इत्युक्ते तत्र
स्वाभिमानी इति.
स्वाभिमानी, हा, मानिनिति मानिनिति प्रातिपदिकम्. तत्र इनि प्रत्यय, पुनः मानः यस्य अस्ति सः मानिन् इति. वने वसति चातकः, एकः एव तादृश स्वाभिमानी अस्ति. खगः इत्युक्ते
पक्षी.
पक्षी, हा. के गच्छति इति कृत्वा खगः. के इत्युक्ते आकाशः. कः, कम् इत्युक्ते आकाशः. के इत्युक्ते आकाशे, आकाशे गच्छति इति कृत्वा खगः.
खे डयते इति अपि वक्तुं शक्यते.
इति अस्ति खलु अत्र,
गच्छति.
अतः ग इति, किन्तु समानार्थकः. समीचीनम्. विपासितः वा ब्रेते वा तत्र याचते केवलं पुरन्दरम्
इति इन्द्रम्.
इन्द्रम् एव याचते. अत्र एकः
पिपासया सह म्रियते. पिपासया ते
न पिपासितः वा? पिपासितः, तत्र पिपासितः अस्ति सः इत्युक्ते तस्य पिपासा अस्ति.
आम्, पिपासया सह मरणम् अपि.
हा, यदि प्राप्नोति तत्र मरणस्य समीपं, हा, तादृशस्थितिः भवति चेदपि सः इन्द्रात् अन्यं
परन्तु इन्द्रमेव सः याचति,
सत्यं भगिनि याचते पुनः तत्र द्विकर्मक
द्विकर्मक
इन्द्रं जलं याचते चातकः.
अत्र तु खगः इति प्रथमा विभक्ति एकवचने अस्ति, तस्य विशेषणं तु एकः इति वयं
स्वीकुर्मः.
खगः इति
एकः खगः सः चातकः.
महोदय तत्र पिपासितः वा म्रियते वा याचते पुरन्दरं तद् तादृशं वा
इति अहं चिन्तितवान्.
परन्तु अत्र पिपासया मरणावस्थायां एव प्राप्नुयात् चेदपि पिपासया मरणावस्थायां
सः प्राप्नुयात्
चेदपि
तत्र
पिपासिता भवति चेदपि पुरन्दरमेव याच्यते. पिपासया मरणं प्राप्नोति चेदपि सः तदापि इति वा तादृश वा इति
तत्र महोदय तत्र भा इति तत्र मार्गद्वयम् इति तादृश अर्थः नास्ति, किन्तु म्रियते सः म्रियते अपि तत्र तत्र केवलं सः पुरन्दरम् एव याचते, केन मार्गेण अपि सः म्रियते अपि तत्र पिपासया इति अस्तु. तत्र कोऽपि विकल्पः नास्ति खलु, तत्र केवलं तत्र अहं चिन्तितवान् तत्र मरणावस्थं केनचित् मार्गे अपि प्राप्तवान् भवतु, पिपासया वा अन्येन मार्गेण वा, किन्तु तत्र सः इन्द्रमेव याचते इति, अतः तत्र भा इति एकवारमेव वक्तव्यमिति मन्ये खलु. किन्तु अस्तु,
किञ्चित् क्लेशः आसीत् अन्वयक्रमे.
एतत् सुभाषितस्य अन्यत् एकं रूपम् अस्ति, तत्र द्वितीयं वाक्यं तु म्रियते वा पिपासार्थो याचते वा पुरन्दरम् इति अस्ति. म्रियते वा पिपासार्थो याचते वा पुरन्दरम्.
म्रियते वा
पिपासार्थो अहं मम पाठशालायां पठितवती अस्ति
तत्र पिपासया इति तत्र माध्यमम् इति तत्र अथवा साधनं केन
अन्वय कथं भवति महोदय? एकः एव मानी चातकः सारि
सत्यं महोदय एकः एव
खगः वा खगः
मानी चातकः वने वसति.
सः स्वाभिमानी सः पिपासया मरणं स्वीकरोति वा पुरन्दरं जलं याचते. मार्गद्वयम् अस्ति तस्य कृते. पिपासया मरणं स्वीकरोति अथवा पुरन्दरं जलं याचते.
पिपासिता म्रियते वा याचते वा पुरन्दरम्. अस्तु,
यतोहि सः स्वाभिमानी एक एव स्वाभिमानी खगः अस्ति.
सत्यं भगिनि, अतः तत्र पिपासितः तत्र पिपासितो इति तत्र तु किम् अस्ति? तत्र पिपासितः
विसर्ग अस्ति. पिपासितः म्रियते वा याचते वा पुरन्दरम्
इति.
ओ अस्तु अस्तु, तादृश सम्यक् भवति.
इदानीं सम्यक् अस्ति.
ऐदर् हि विल् डै औट् आफ् पिपासया अथवा पुरन्दरं याचते.
समीचीनम्. अतः तत्र पिपासितः सः चातकः म्रियते वा अथवा याचते वा पुरन्दरं. समीचीनं शुभदा भगिनी, समीचीनमस्ति भगिनि, धन्यवादः.
धन्यवादः महोदय.
अस्तु, अग्रे सूर्यकुमारी भगिनी.
महोदय
विद्याशास्त्रं च
शस्त्रं शस्त्रं
ओ ओ विद्याशास्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये प्रतिपत्तये आस्याय बुद्धत्वे द्वितीय द्रियते सदा द्वितीया द्रियते सः
सदा
सदा विद्या शास्त्रं च शास्त्रं च यत् किमपि कार्यं साधयितं शस्त्रं शास्त्रं चेति
तत्र शस्त्रं शास्त्रं किञ्चित् अकारस्य दीर्घत्वं भवतु भगिनि, नो चेत् तत्र क्लेशः भवति. शस्त्रं शस्त्रम् इति तत्र अकारः
शस्त्रं शास्त्रं
हा शस्त्रं शास्त्रं चेति
इति विद्याद्वयं वर्तते. प्रथमा शस्त्रविद्या वार्तके
हास्यास्पदं
परं द्वितीया शास्त्रविद्या सदैव गौरवास्पदं भवति.
तत्र विद्याद्वयम् अस्ति,
एकं
प्रथमा किमस्ति, प्रथमा विद्या अस्ति शस्त्रविद्या. शस्त्रविद्या इत्युक्ते शस्त्रेण तत्र तत्र मार्शल् आर्ट्स् इति वदामः खलु, तत्र तत्र सा प्रथमा.
द्वितीयविद्या शास्त्रं
शास्त्रम् इति द्वितीया विद्या
ज्ञानं
हा इति तत्र तत्र प्रथमा विद्या कीदृशम् इत्युक्ते कीदृशी इत्युक्ते वार्धक्ये वार्धक्ये तत्र यौवने इति न तत्र वार्धक्ये तत्र किं भवति
हास्यास्पदं भवति. शास्त्रविद्या गौरवास्पदं भवति
गौरवास्पदम् आस्पदं गौरवं जनयति हास्यं जनयति आस्पदम् इत्युक्ते जनयति हास्यं जनयति हास्यजनकं गौरवजनकं हास्यास्पदं गौरवास्पदं शास्त्रविद्या सदैव गौरवास्पदं भवति इति समीचीनं भगिनि.
द्वे पदम् उपयुज्यते
हा अत्र द्वे इति समीचीनं भगिनि हा
पुल्लिङ्ग न न
विद्या विद्या द्वे इति हा स्त्रीलिङ्ग पुल्लिङ्ग अस्ति चेत् तत्र द्वौ इति
नपुंसकलिङ्गं महोदय
विद्या विद्या इति अस्ति भगिनि द्वे विद्ये
द्वे विद्ये
महिला महिले महिलाः विद्याः खलु
द्वे
विद्ये
विद्या
इति आकारलिङ्गपदम्
अहं चिन्तयामि शस्त्रं शास्त्रं
हा सत्यं भगिनि न न तदपि तदपि समीचीनमेव किन्तु तत्र विद्या इति विषयः अस्तु धन्यवादः. अस्तु अग्रे लक्ष्मी भगिनि
अस्तु महोदय. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं मूटैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते. भूम्यां त्रीणि रत्नानि सन्ति जलम् अन्नं सुभाषितं च किन्तु मूटाः पाषाणखण्डानेव रत्नं मन्यन्ते.
जनाः किं रत्नानि इति मन्यन्ते
मूटाः जनाः
मूढाः न मूढाः
मूढाः
मूर्खाः इति तत्र
मूर्खाः जनाः पाषाणखण्डानेव रत्नं
रत्नानि मन्यन्ते
मन्यन्ते.
तत्र रत्नम् इत्युक्ते वयं किं चिन्तयामः पाषाणखण्डम् इति एव खलु तत्र यत् रत्नम् इत्युक्ते तत्र वज्रम् एतत् सर्वं तत्र पाषाणखण्डमेव खलु तत्र तत्र साधारणरूपेण वदामश्चेत् तत्र रत्नम् इत्युक्ते तत्र वज्रं वा तत्र अन्यत् किमपि वा तत् किन्तु सर्वं पाषाणखण्डमेव. किन्तु अत्र सुभाषितं किं वदति जगति तत्र जलम्
अन्नं
सुभाषितम् एव तत्र रत्नत्रयम् अस्ति इति न तु
पाषाणखण्ड
रत्नानि इति किन्तु जनाः तादृशं तेषां चिन्तनं तादृशमस्ति ते पाषाणखण्डानेव स्वीकुर्वन्ति अतः तत्र त्रीणि इति इदानीं तत्र नपुंसकलिङ्गे अस्ति तत्र एकः इति खगः पुल्लिङ्गे द्वे विद्या इति स्त्रीलिङ्गे इदानीं त्रीणि इति नपुंसकलिङ्गे
नपुंसकलिङ्गे
समीचीनं भगिनि अस्तु अग्रे गीताञ्जलि भगिनि
महोदय तत्र वार्धक्यै हास्यास्पदं वार्धक्यै
वार्धक्ये वार्धक्ये
वार्धक्ये सप्तमी सप्तमी तत्र न महोदय
सत्यं भगिनि वार्धक्यम्
इत्युक्ते वृद्धा
सत्यं भगिनि
तदनन्तरं हास्यास्पदं
हास्यास्पदं हास्यजनकं
हास्यजनकम् इति वा महोदय
आस्पदम् आस्पदम्
तत्र तु नास्ति महोदय अहं न अवगतं तत्र किमर्थं तत् दत्तं शस्त्रविद्या वार्धक्ये
भगिनी तत्र शस्त्रविद्या इत्युक्ते कोऽपि वृद्धः अस्ति तत्र वृद्धः इति ते साधारणवृद्धः इति चिन्तयतु तस्य सः तस्य शक्तिः नास्ति यदि यदि तस्मिन् सन्दर्भे सः तत्र अहं युद्धं कर्तुं गच्छामि इति वदति तत्र किं भवति हास्यास्पदं भवति इति तावदेव साधारण अर्थः तत्र तत्र ये युद्धे निपुणाः सन्ति इति तेषां विषयः नास्ति केवलम्
अपि च महोदय आद्रियते इति किं पदमस्ति किं धातुः किम् अस्ति आद्रियते ओ
आदरम् इति प्रायश आद्रियते
तस्य धातुः किं भवति
आद्रियते ध्रियते धृ
आ इति उपसर्ग अस्ति वा
धृ इति अस्ति आद्रियते
उपसर्गाङ्गोपसर्ग
अस्तु अस्तु
तत्र धातुः का धृ धृ धातुः भगिनि अस्तु गीताञ्जलि भगिनि अग्रे ओ अस्तु तत्र समयः अपि जातः अस्तु भगिनि अस्तु अग्रिमे वर्गे कुर्मः किन्तु तत्र तत्र वर्गात् पूर्वं यदि वयं तत्र अहं गृहपाठरूपेण तत्र प्रेषयामि तत्र किन्तु तत्र 64 पुटे तत्र द्वितीय अभ्यासः तत्र अस्ति तत्र गीताश्लोकाः सन्ति वर्गात् पूर्वं यदि एकवारं तान् श्लोकान् अवलोकयामः लाभः भवति अतः तत्र गृहपाठरूपेण प्रेषयिष्यामि अस्तु तर्हि तत्र रघुपतिमहोदय भवानेव तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय
सर्वे भवन्तु सुखिनः सर्वे सन्तु रामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 श्रीगुरुभ्यो नमः